सर्वेभ्य नमस्कार शुद्धिकौमुदी कक्षां प्रति सर्वेषां हार्दं स्वागतम्। पूर्वतन कक्षायां रूपलिंग वचनादिदोषाः इति विषये दृष्टवन्तः, तस्यैव अनुवर्तनम् इदानीं कुर्मः। पूर्वतन कक्षायां केचन शब्दाः अस्माभिः दृष्टाः आसन्, तादृशानेव कांश्चन शब्दान् अधुना वयं पश्यामः। बहुधा अयं प्रसिद्धः शब्दः प्रादेशिकभाषासु अपि सुमतिः, सुमती इति। प्रायः वयं सर्वे अत्र दोषं कुर्मः, सुमतिः इत्येव प्रयोक्तव्यम्। यतः शोभनामतिः यस्य सः, यस्याः सा सुमतिः। एषः शब्दः मतुवन्तः शब्दः न, अतः ञ् प्रत्ययः न भवति। पूर्वं यः शब्दः दृष्टः भानुमति इति शब्दः, तत्रापि मती इति आनुपूर्वी अस्ति एव, अत्रापि सः एव आनुपूर्वी। किन्तु भानुमती इत्यत्र पूर्वतनशब्दे तत्र मतुबन्तता अस्ति, नाम मतुप्रत्ययः अस्ति। अत्र मतिशब्दः, अतः एतयोः द्वयोः भेदः स्फुटः एव। अतः सुमतिः इति इकारान्तं रूपम्। तथैव अन्यः शब्दः मण्डली इति। अयं सर्वासु अपि प्रादेशिकभाषासु प्रसिद्धः एव शब्दः मण्डली इति। प्रायः प्रादेशिकभाषासु मण्डली इति प्रयोगः दृश्यते, संस्कृते तु मण्डली इत्येव शुद्धम्। मण्डली इत्यत्र लकारः एव, न तु लकारः। प्रादेशिकभाषायां लकारश्रवणं भवति, किन्तु संस्कृते लकारः एव। लकारः वेदे श्रूयते तु लोके। अन्यः प्रसिद्धः शब्दः मण्टपः। मण्टपशब्दः सर्वासोपि प्रायः प्रादेशिकभाषासु अस्ति एव। प्रायः प्रादेशिकभाषासु मण्टप इत्येव प्रयोगः श्रूयते, किन्तु संस्कृते मण्टपः इति अशुद्धम्। मण्डपः इति शुद्धः, शुद्धं रूपम्। मण्डपः इत्येव शुद्धम्। कोशकाराः विविधान् व्युत्पत्तिप्रकारान् प्रदर्शितवन्तः, किन्तु कुत्रापि कोशे मण्टपशब्दः न दृश्यते। अतः सर्वेऽपि शिष्टप्रयोगाः मण्डप इत्येव सन्ति, इत्यतः मण्डपः इत्येव शुद्धं रूपम्। तथैव प्रसिद्धः शब्दः सङ्घटनम् इति। प्रायः हिन्दीभाषायां सङ्घटनम् इति प्रयोगः दृश्यते, किन्तु संस्कृतभाषायां सङ्घटनम् इत्येव शुद्धः प्रयोगः। सङ्घटनम् इत्यत्र सम् इति उपसर्गः। अयं धातुः सङ्घटनम् इत्यत्र घटधातुः, चेष्टा इति अर्थः, चेष्टार्थकः घटधातुः। अयं घटधातुः कवर्गचतुर्थादिः, नाम कवर्गेयः चतुर्थः वर्णः ककघ इति चतुर्थादिः, न तु कवर्गतृतीयादिः। अतः घट इति धातुः न घट इति धातुः। तथैव तत्रत्यः टकारः, सङ्घट इत्यत्र टकारः टवर्गप्रथमः, न तु टवर्गद्वितीयः। हिन्दीभाषायां यथा पूर्वमुक्तं सङ्घटनम् इति प्रयोगः दृश्यते, किन्तु संस्कृते तु तादृशः प्रयोगः नास्ति। सङ्घटनम् इत्येव शुद्धं रूपम्। एवं शुद्धानि रूपाणि कथं ज्ञातव्यानि चेत् धातुज्ञानेन एव शुद्धरूपस्य ज्ञानं भवितुम् अर्हति। अग्रिमं पदं पश्यामः। अयमपि प्रसिद्धः शब्दः प्रादेशिकभाषायां सम्मानः इति। प्रादेशिकभाषायां प्रायः कन्नडे वा अथवा अन्यस्यां भाषायां वा सन्मान इत्येव प्रयोगः भवति, किन्तु सः शुद्धः प्रयोगः न। शुद्धः प्रयोगः तु सम्मानः इति। सम्मानः इति अयं शब्दः, सम् इति उपसर्गः। अत्र अर्थः अस्माभिः अवलोकनीयः। सत्पुरुषस्य मानः इति अर्थः उच्यते चेत् सन्मानः इति रूपं स्यात्, किन्तु अस्य सन्मानः प्रचलति इत्यादि वाक्यप्रयोगे तु अयम् अशुद्धः प्रयोगः। सत्पुरुषस्य मानः इत्यर्थे सन्मानः इति शुद्धमेव, किन्तु लोके यत् प्रसिद्धं सन्माननम् अथवा सम्माननम् इति लोके यः प्रादेशिकभाषाप्रयोगः सः तु तस्मिन् अर्थे नास्ति। अतः एतादृशस्य सन्मानः प्रचलति इति वाक्यप्रयोगः दुष्टः एव। अतः सम्मानः इत्येव शुद्धं रूपम्। उभयतापि लेखितुं शक्यते, सम्मानः इति सम्मानः इति उभयतापि लेखितुं शक्यते। अन्यदपि अन्यः अपि अयं प्रसिद्धः एव शब्दः मध्यन्तरम् इति प्रादेशिकभाषायां शृणुमः। प्रायः चलनचित्रेषु सर्वत्रापि मध्ये कश्चन शब्दः प्रयुज्यते, मध्यन्तरम् इति तत्र दृश्यते। संस्कृते अयं शुद्धः प्रयोगः नास्ति, अयम् अशुद्धः शब्दः। मध्यान्तरम् इति प्रयोक्तव्यम्। मध्य अन्तरम् इति अनयोः योगे सवर्णदीर्घे मध्यान्तरम् इति रूपम्। पररूपसन्धेः अत्र अवकाशः नास्ति। पररूपसन्धेः अवकाशः किमर्थं नास्ति इति चेत् शकन्ध्वादिगणे अस्य रूपस्य प्रयोगः नास्ति, अतः पररूपसन्धिः अत्र न भवति। प्रादेशिकभाषासु मध्यन्तरम् इत्येव प्रयुज्यते, किन्तु तद्रूपं प्रादेशिकभाषायां शुद्धं स्यात्, संस्कृतभाषायां तु तद्रूपं शुद्धं नास्ति। संस्कृतभाषायां तु मध्यान्तरम् इत्येव शुद्धं रूपम्। तर्हि संस्कृतभाषायां शुद्धरूपस्य ज्ञानं कथं भवितुमर्हति इति चेत् सन्धिप्रक्रिया, प्रकृतिप्रत्ययविवेकः इत्यादीनां ज्ञानेन संस्कृतभाषायां शुद्धं रूपं वयम् अवगन्तुं शक्नुमः। अग्रिमं शब्दं पश्यामः, उच्चाटनम् इति। अयमपि प्रादेशिकभाषासोपि प्रसिद्धः प्रयोगः, भूतोच्चाटनम् इत्यादि वयं सर्वे शृणुमः। अत्र उच्चाटनम् इति शुद्धं रूपम्, महाप्राणयुक्तं रूपम् अशुद्धम्। उदुपसर्गपूर्वकस्य भेदनार्थकस्य ण्यन्तस्य चटधातोः ल्युटि उच्चाटनम् इति रूपम्। तन्नाम अत्र उत् इति उपसर्गः, चट इति धातुः, तस्य धातोः ल्युट् इति प्रत्ययः भवति। ल्युट् प्रत्ययस्य अन इति आदेशः भवति, उच्चाटनम् इति रूपं भवति। एतत् अल्पप्राणयुक्तं रूपमेव संस्कृतभाषायां शुद्धम्, उच्चाटनम् इति। चटधातुः चवर्ग प्रथमादिः न तु चवर्ग द्वितीयादिः, तस्मात् उच्चाटनम् इति रूपम् अशुद्धम्। तथैव अन्यः शब्दः उच्चिष्टम् इति। अयमपि प्रायः प्रादेशिकभाषासु कदाचित् प्रयुक्तः स्यात्, उच्छिष्टम् इत्येव शुद्धं रूपम्। अत्रापि अस्मिन् उच्छिष्टशब्दे अपि उत् इति उपसर्गः, शेष इति धातुः, तस्य असर्वोपयोगः इति अर्थः, तस्य क्तप्रत्यये उच्छिष्टम् इति रूपम्। उत शिष्टम इति स्थिते स्तुत्व संधिः यदा भवति तदा तकारस्य उत इत्यत्र यः तकारः अस्ति तस्य चकारः भवति उच्छिष्टम् इति रूपम् ततः तकारस्य चकार अनन्तरं षष्ठोटि इत्यनेन षकारस्य छकारः भवति तदा उच्छिष्टम् इति रूपं सिद्ध्यति षकारस्य छकारः यः भवति सः चवर्गद्वितीयः न तु चवर्गप्रथमः अतः उच्छिष्टम् इत्येव शुद्धं रूपम् अत्र कश्चन दोषः अस्ति प्रथमः इति भवेत् न तु चवर्गप्रथमः इति अत्र भवेत् दोषः अस्ति प्रसिद्धः अयं कलियुगशब्दः कृतद्वापर इत्यादिबोधकः युगशब्दः नपुंसके एव न तु पुंसि अतः कलियुगम् इत्येव शुद्धं रूपम् युगशब्दस्य अन्ये अर्थाः सन्ति हलः इत्यादयः तस्मिन्नर्थे तु पुंसि भवति किन्तु कृतयुगं द्वापरयुगं त्रेतायुगम् इत्याद्यर्थेषु नपुंसके एव पुंलिङ्गे अस्य प्रयोगः नास्ति कोशः तत्र दर्शितः कोशस्य प्रयोगः यानाद्यङ्गे युगः पुंसि युग्मं युग्मे कृतातिषु इति अमरकोशः अस्य प्रयोगोऽपि दर्शितः घोरं कलियुगं स्मृतम् इति वयं सर्वेऽपि प्रायः बहुधा दोषं कुर्मः सः दोषशब्दः पुंसि एव नपुंसकप्रयोगः तु भ्रान्त्या अतः दोषाः स्वदोषः इत्येव न तु दोषम् इति वा दोषाणि इति वा प्रयोगं पश्यामः माल्पीयान् बहु सुकृतं हिनस्ति दोषः इति किरातार्जुनीये रसापकर्षका दोषाः इति साहित्यदर्पणे वातः पित्तः तपश्चेति त्रयो दोषाः समागताः इति भवप्रकाशिकायाम् इत्येवं दोषशब्दः पुंसि एव एतावता ये शब्दाः उक्ताः अथवा पूर्वतनकक्षायां केऽपि विषयाः उक्ताः ये विषयाः उक्ताः तेषां विषये सन्देहाः सन्ति चेत् कृपया हस्तम् उत्तोलयन्तु इति निवेदनम् यदि सन्देहाः न सन्ति अग्रे गच्छामः मूर्तिमहोदय
नमस्कारम्
नमस्कारः
कश्चन श्लोके श्रुतवन्तः काले खलु सम्यक् अस्तु
कः सन्देहः कः इति मया न ज्ञातम्
कलौ काले कलौ
अत्र कलि इति शब्दस्य विषये प्रश्नः नास्ति युगशब्दः अस्ति खलु युगम् इति नपुंसके एव इति विषयः न तु कलिशब्दस्य विषये चर्चा युग इति शब्दः अस्ति खलु युगम् इत्येव युगः इति नास्ति इति अत्र विषयः प्रश्नाः न सन्ति इति मत्वा मूर्तिमहोदयस्य पुनः प्रश्नः अस्ति मूर्तिमहोदय
धन्यवादः
रामकृष्णराव महोदय
श्रूयते अहं स्नानं करोमि एकं वाक्यम् अहं करोमि स्नानम् एकं वाक्यम् अहम् स्नानं करोमि अहम् एकं वाक्यं प्रथमवाक्ये अहम् ह उपरि दात् अस्ति द्वितीयवाक्ये करोमि अहम् अहम् स्नानं करोमि अहम् अहम् अन्तिमवाक्ये अन्तिमस्थाने अस्ति अत्र अहम् मकार अर्धं वा या
स्नानं करोमि अहम् इत्यत्र मकारः अर्धः एव अन्तिम यदा वाक्यस्य अन्ते भवति यदा वाक्यस्य अन्ते भवति तदा अर्धमकारः अहम्
अर्धमकारः धन्यवादः
सन्देहाः न सन्ति इति मत्वा अग्रे गच्छामः अग्रिमः शब्दः तालु प्रायः वयं सर्वे सिद्धान्तकौमुद्यां वा अथवा अन्यत्र वा एतं शब्दं श्रुतवन्तः स्याम अपोः विसर्जनीयानां कण्ठः इचुवेशानां तालु इति इदं किञ्चन स्थानम् अस्माकं मुखे विद्यमानम् अयं तालुशब्दः पुल्लिङ्गे नास्ति नपुंसकलिङ्गे अस्ति अयं नपुंसकलिङ्गे अस्ति इत्यतः स्वमोर्नपुंसकात् इति सूत्रेण सु इत्यस्य लोपः भवति नाम अत्र तालु इत्यत्र सु इति यः प्रत्ययः भवति तस्य प्रत्ययस्य लोपे तालु इति शुद्धं रूपम् अतः तालु इत्यत्र विसर्गस्य श्रवणं नास्ति तालु इत्यस्य कोशः अत्र अस्माभिः द्रष्टुं शक्यते तालु च काकुदम् इति अमरकोशे तस्य प्रयोगः अस्ति तथैव तालुशब्दस्य प्रयोगः दृश्यते भागवते मुखत् अत्र कश्चन दोषः अस्ति मुखतस्तालु निर्भिन्नम् इति भवेत् मुखतः इति तकारः नास्ति अत्र मुखतस्तालु निर्भिन्नम् इति भागवते प्रयोगः अस्ति अतः तालु इत्येव शुद्धं रूपम् अग्रिमः अपि प्रसिद्धः शब्दः सम्राट् इति प्रायः सर्वत्र प्रादेशिकभाषासु साम्राट् इत्येव प्रयोगः दृश्यते किन्तु संस्कृतभाषायां सम्राट् इत्येव शुद्धं रूपम् जकारान्तस्य सम्राज् शब्दस्य प्रथमा एकवचनान्तं रूपं सम्राट् इति तत्र सकारोत्तरम् आकारो नास्ति अपि तु अकारः एव अतः सम्राट् इत्येव शुद्धं रूपम् अस्य शब्दस्य कथं व्युत्पत्तिः इति अत्र दर्शितमस्ति सम्यक् राजते राजृ इति धातुः दीप्तिः इति अर्थः सम्यक् राजते राजृ धातुः सम् राज इति भवति तदनन्तरं क्विप् प्रत्ययः भवति अन्याः प्रक्रियाः प्रवर्तन्ते सम्राट् इति रूपं सिद्ध्यति अमरकोशे एतस्य प्रयोगं वयं द्रष्टुं शक्नुमः शास्ति यस्याज्ञया राज्ञः सम्राट् इति अमरकोशः प्रयोगः अस्य दर्शितः रघुवंशे सम्राट् समाराधन तत्परोभूत् इति रघुवंशे एतस्य प्रयोगं वयं द्रष्टुं शक्नुमः अग्रिमः शब्दः पलितकेशः पलित इत्यस्य कः अर्थः इति अत्र लिखितमस्ति वार्धकेन येषां केशाः श्वेताः भवन्ति ते उच्यन्ते पलितकेशाः इति पलितः इत्यत्र पकारः अल्पप्राणः न तु महाप्राणः महाप्राणेन फकारेण युक्तस्य फलितशब्दस्य फलयुक्तम् इत्यर्थः सः अर्थः अत्र न विवक्षितः अर्थः पलितकेशः इत्येव शुद्धं रूपं पलित इत्येव शुद्धं रूपं आयुर्वेदे प्रयोगं वयं द्रष्टुं शक्नुमः पित्तञ्च केशं पतति पलितं तेन जायते इति अमरकोशेपि प्रयोगः दृश्यते पलितं जरसा शौक्यं केशादौ प्रायः अग्रिमः शब्दः अत्यन्तं प्रसिद्धः एव पारितोषकम् इति प्रादेशिकभाषायाम् अथवा संस्कृते कदाचित् वयं दोषवशात् प्रयोगं कुर्मः पारितोषिकम् इति शुद्धं रूपम् सन्तोषेण तोषणाय वा यत् दीयते तत् पारितोषिकम् अत्र शकारोत्तरम् इकारः श्रूयते इकाररहितं रूपं असाधु परितोषः प्रयोजनम् अस्य इति ठै प्रत्ययः प्रयोजनम् इत्येव पाणिनिसूत्रम् ठस्य इक इति आदेशः ठस्येकः इति सूत्रेण अतः पारितोषिकम् इति शुद्धं रूपं सिद्ध्यति तत्र इक इति प्रत्ययः इत्यतः प्रत्ययाङ्गभूतः इकारः श्रूयते एव पारितोषिकम् इत्येव शुद्धं रूपम् अग्रिमः शब्दः पित्तम् इति त्रयः दोषाः इति वयं जानीमः एव वातपित्तकफ इति त्रयः दोषाः त्रिदोषेषु अन्यतमम् अस्ति पित्तम् तत्र तकारद्वयं श्रूयते उभयोः अपि तकारयोः अल्पप्राणता एव एकस्य महाप्राणता इति तु भ्रान्तिः पित्तम् इत्यस्य विग्रहः एवम् अस्ति अपिदीयते प्रकृतावस्था रक्ष्यते इति पित्तम् अपि इति उपसर्गः देङ् इति धातुः पालनम् इति तस्यार्थः अतः प्रत्ययः अन्यः अपि विग्रहः दृश्यते विकृतावस्थया नाश्यते शरीरम् इति अन्यः विग्रहः तत्रापि अपि इति उपसर्गः दो इति धातुः अवखण्डनम् इति अर्थः तप्रत्ययः एवं व्युत्पत्तिद्वयम् उभयत्रापि अत्र अपि इत्यत्र विद्यमानस्य अकारस्य लोपः अपेः अल्लोपः अतः पित्तम् इति रूपं सिद्ध्यति तकारद्वयमपि अल्पप्राणयुक्तम् एव अन्यः प्रसिद्धः शब्दः झञ्झावातः इति झञ्झावातः इत्यत्र उभयत्रापि झकारः नाम महाप्राणझकारः एव उभौ अपि महाप्राणौ एव कोशेषु तथा दर्शनात् जकारादिः नाम अल्पप्राणोपेतः न दृश्यते अन्यः अपि प्रसिद्धः शब्दः प्रादेशिकभाषासोऽपि जर्झरितः इति जर्जरितः इति अल्पप्राणजकारद्वयोपेतम् नाम जकारद्वयम् उभौ अपि जकारौ अल्पप्राणौ अथवा उभौ अपि महाप्राणौ तादृशम् रूपम् एव शुद्धम् एकम् तु झर्झरितः इति अन्यत् जर्जरितः इति एकः अल्पप्राणः अन्यः महाप्राणः इति तादृशम् रूपम् संस्कृते नास्ति अग्रिमं शब्दं पश्यामः शिरश्छेदः इति शिरस् छेदः इति स्थिते श्रुत्वे शिरश्छेदः इति रूपं सिद्धम्। शिरः शब्दः न अकारान्तः अपि तु सकारान्तः, तस्मात् शकारश्रवणं स्यादेव। शकारलोपस्तु केनापि सूत्रेण न विहितः, अतः शिरश्छेदः इत्येव शुद्धं रूपम्। शिरच्छेदः इति रूपम् अशुद्धम्। अयमपि प्रसिद्धः अग्रिमशब्दः मार्तण्डः इति। प्रायः सर्वत्रापि मार्ताण्ड इति वयं शृणुमः, किन्तु अत्र संस्कृते मार्तण्डः इत्येव शुद्धं रूपम्। शकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकेन अत्र पररूपम्। शकन्ध्वादिगणे अयं शब्दः पठितः मार्तण्डशब्दः, अतः पररूपम् अत्र नित्यं भवति मार्तण्डः इत्येव रूपम्। अन्यत्र प्रयोगः दृश्यते परमार्ताण्डमाश्रित पुनर्मार्ताण्डमाश्रित इत्यत्र छान्दसत्वात् तथा प्रयोगः इति तत्त्वबोधिनीकारेण सिद्धान्तकौमुद्यां तत्त्वबोधिनीकारेण तत्र उल्लिखितम् अस्ति। अग्रिमः शब्दः अक्षौहिणी। महाभारते वयं जानीमः अक्षौहिणी सेना इति तत्र प्रसिद्धम्। अष्टादश अक्षौहिणी सेना आसीत्। अक्षाणाम् ऊहिनी अक्षौहिणी। सिद्धान्तकौमुद्याः आदौ एव इदं वार्तिकमस्ति अक्षादूहिन्याम् उपसङ्ख्यानम् इति। अक्षशब्दात् ऊहिनी शब्दे परे वृद्धिः भवति इति वार्तिकस्य अर्थः। अक्षौहिणी इत्येव शुद्धं रूपम्। किन्तु तत्त्वबोधिनीकारः अक्षौहिणी इत्यपि भवति इति तस्य मतम् उल्लिखति, किन्तु प्रायः दैनन्दिनव्यवहारे अक्षौहिणी इत्येव प्रयोगः समीचीनः। अयमग्रिमः प्रसिद्धः शब्दः ज्योतिषिकः इति। ज्योतिः नाम सूर्यादिग्रहाः। ये ते यत्र प्रतिपाद्यतया भवन्ति तत् शास्त्रं ज्योतिषम् इति उच्यते। तत् यः अधीते वेदवा, तत् यः अधीते वेत्ति वा सः ज्योतिषिकः इति उच्यते। ज्योतिष इति शब्दः तस्मात् ठक् प्रत्ययः, ठस् ठस्य इकः इति ज्योतिषिकः इति रूपं सिद्ध्यति। केचन अत्र वृद्धिं विकल्पेन इच्छन्ति, संज्ञापूर्वकः विधि अनित्यः इति काचित् व्याकरणे परिभाषा अस्ति, तस्मात् केचन विकल्पेन वृद्धिम् इच्छन्ति, तदा विकल्प यदा औकारः विकल्पेन भवति तदा ज्योतिषिकः इति रूपमपि केचन वदन्ति। व्याकरणं यः अधीते सः वैयाकरणः। व्याकरणं यः वेत्ति अधीते वा, व्याकरण इत्यस्मात् अण् प्रत्यये वैयाकरणः इति रूपं सिद्ध्यति। वकारस्य अनन्तरं यकारद्वयलेखनं वा अथवा वै इति लिखित्वा यकारद्वयलेखनं वा अशुद्धम्। वैयाकरणः इति अत्र यथा दर्शितम् एतदेव शुद्धं रूपम्। ऐकाररहितं यकारद्वयोपेतं वा रूपम् असाधु। ऐकारसहितम् एकयकाररूपं वैयाकरणः इति एतदेव शुद्धं रूपम्। प्रसिद्धः अस्ति जनार्दनः इति शब्दः। जनैः अर्ध्यते यच्यते इति जनार्दनः। अन्याः अपि बह्व्यः व्युत्पत्तयः सन्ति एतस्य पदस्य। सर्वत्रापि धातुः तु अर्ध इत्येव। यश्च अल्पप्राण दकारोपेतः, अर्ध इति दकारः अल्पप्राणः न तु महाप्राणः, अतः जनार्दनः इत्येव शुद्धं रूपम्। केचन बहुधा प्रादेशिकभाषायां महाप्राणं लिखन्ति, तत्तु अशुद्धम्। एषः अन्यः प्रसिद्धशब्दः पूर्णिमा इति। यस्यां तिथौ चन्द्रमण्डलं पञ्चदशभिः अपि कलाभिः पूर्णं भवति सा तिथिः उच्यते पूर्णिमा इति। पूर्णं चन्द्रस्य पूर्णं तेन निर्वृत्ता इति इमपु प्रत्ययः। अत्र वृद्धेः प्रसक्तिः नास्ति, अतः पौर्णिमा इति रूपं नास्ति, पूर्णिमा इत्येव शुद्धं रूपम्। पौर्णमासी पौर्णमी इति शब्दौ तु स्तः एव, किन्तु अत्र तु पौर्णिमा इति शुद्धं रूपं न, पूर्णिमा इत्येव शुद्धं रूपम्। एतावता ये विषयाः उक्ताः, एतेषु कस्यापि सन्देहः अस्ति चेत् अथवा किमपि प्रष्टव्यमस्ति चेत् कृपया हस्तम् उत्तोलयन्तु। यदि सन्देहः नास्ति तर्हि अग्रे गच्छामः। रामकृष्णराव महोदय, रामकृष्णराव महोदय, रामकृष्णराव महोदय
अपि शुद्ध
स्पष्टं नास्ति। भवतः ध्वनिः स्पष्टा नास्ति। न श्रुतं किं पृष्टवान् इति न श्रुतम्। भवतः ध्वनिः अस्माभिः न श्रूयते। रामकृष्णराव महोदय, रामकृष्णराव महोदयस्य ध्वनिः न श्रूयते। अन्यान् पृच्छामः। कविता महोदय, कविता महोदय प्रश्नः अस्ति वा? मोहनन् महोदय
नमस्ते।
नमस्ते।
एतद् विग्रहवाक्यस्य अर्थं कृपया वदतः। यदा
कस्य विग्रहवाक्यस्य?
सर्वविग्रहवाक्यस्य शुद्धं वाक्यं भवान् उक्तवान् खलु।
प्रश्नः स्पष्टः नास्ति।
वेरेवर् यु आर् गिविङ्ग् दि विग्रहवाक्य फार् दि करेक्ट् सेण्टेन्सेस् नो करेक्ट् वर्ड् यु केन् एक्स्प्लेन् द मीनिङ्ग् यु नो सर्टन् थिङ्ग्स् यु आर् नाट् एबल् टु अण्डर्स्टाण्ड् द मीनिङ्ग्।
भवान् इदानीं कस्य शब्दस्य विषये ज्ञातुम् इच्छति इति वदति चेत् तस्य शब्दस्य अहं विवरणं करोमि। महादेवन् महोदय,
महोदय भवतः सालु शब्दस्य विषये स्लैड् मध्ये इत्थं लिखितं, सालु शब्दः नहि पुंसि नहि नपुंसके इति।
तत्र दोषः अस्ति। तालुशब्दः पुंसि न भवति, नपुंसके एव भवति इति तत्र दोषः अस्ति। सम्यक् करोमि। मूर्तिमहोदयस्य प्रश्नः अस्ति वा?
धन्यवादः।
तत्र प्रादेशिक आङ्ग्लभाषायां प्रायः थ्याङ्क्स् इति उच्यते, तस्य धन्यवादः इति शब्दः प्रयुज्यते संस्कृतभाषायां. धन्यवादः इति. रामकृष्णराव महोदयस्य प्रश्नः अस्ति वा?
महोदय इदानीं श्रूयते वा?
इदानीं श्रूयते. हरि ओम् वदतु महोदय.
इदानीं श्रूयते वा?
इदानीं श्रूयते, वदतु कृपया. स्पष्टं
ज्योतिषकः शब्दम् अशुद्धम्.
भवतः स्वरः स्पष्टः न
श्रूयते. शब्दम् ऐ मीन् ज्योतिषकः शब्दम् अशुद्धं शुद्ध.
रामकृष्णराव महोदयस्य ध्वनिः बहु अस्पष्टा अस्ति, अतः प्रश्नः न अवगम्यते. कृपया प्रश्नं लिखित्वा प्रेषयतु अथवा अनन्तरम् अन्ते पश्यामः. अग्रिमं पदं पश्यामः. अग्रिमं पदं वयं स्वीकुर्मः. सिन्दूरम् इति प्रसिद्धः अयं प्रादेशिकभाषायाम् अपि प्रयुज्यमानः शब्दः, किन्तु प्रायः प्रादेशिकभाषायां सिन्धूरम् इति प्रयुज्यते, तत् अशुद्धं. संस्कृतभाषायां तु सिन्दूरम् इत्येव शुद्धं रूपम्. स्यन्दु इति धातुः प्रस्रवणम् इति अर्थः, तस्य ऊरन् प्रत्यये सिन्दूरशब्दः सिद्ध्यति. अत्र दकारः अल्पप्राणः, अतु महाप्राणः. कोशः, कोशे प्रयोगं वयं पश्यामः. सिन्दूरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके इति, अतः सिन्दूर इति अल्पप्राणः इव शब्दः. अन्यः अपि अयं प्रसिद्धः शब्दः अम्बरीषः इति. अत्र ईशशब्दस्य प्रसक्तिः नास्ति. ईशशब्दः न अत्र, यथा गणेशः इत्यत्र ईशः अस्ति, अत्र अयम् ईशशब्दः न, अतः तालव्यस्य प्रसक्तिः नास्ति. अम्बरीषः इत्येव पृथक् शब्दः. अभि शब्दे अभि इति धातुः, तस्य ईशन् इति प्रत्ययः, ततः अरुड् इति आगमः, अम्बरीषः रूपं सिद्ध्यति. निपातनं भवति गुणादिसूत्रेण अम्बरीषः इति सिद्ध्यति. अत्र अम्बरीषः इत्यत्र मूर्धन्यः एव लेखनीयः. अग्रिमः शब्दः अस्ति विश्वस्तमण्डली इति. ट्रस्ट् इत्येतम् अर्थम् अवगमयितुं दाक्षिणात्यैः एतस्य शब्दस्य प्रयोगः क्रियते. विश्वे यः तिष्ठति सः विश्वस्थः, किन्तु सः अर्थः अत्र न अभिप्रेतः. विश्वासार्हः इति अर्थः अभिप्रेतः। विश्वसिति इत्यस्य क्तान्तं रूपं प्रयोक्तव्यं, तदा विश्वस्तः इत्येव रूपं भवति। तकारः अल्पप्राणः एव न तु महाप्राणः, अतः विश्वस्तमण्डली इत्येव शुद्धं रूपम्। अयमपि प्रसिद्धः शब्दः बभ्रुवाहनः इति, पुराणेषु अत्यन्तं प्रसिद्धं पात्रमेतत्। प्रादेशिकभाषासोऽपि चलनचित्राणि बहूनि एतद् नामकानि आगतानि इति जानन्ति सर्वे। बभ्रुः नाम अग्निः, विष्णुः शिवः पिङ्गलवर्णोपेतः इति एतस्य शब्दस्य अर्थाः सन्ति। बिभर्ति इति बभ्रुः, दुभ्रुञ् धारणपोषणयोः, भ्रुञ् इति धातुः, धारणपोषणयोः इति अर्थः। भ्रुञ् इति धातुः इत्यतः तस्य प्रक्रियायां बभ्रु इति रूपं सिद्ध्यति, अतः बभ्रुवाहनः इति महाप्राणः एव सः बभ्रुवाहनः इत्येव। अल्पप्राणयुक्तम् एतादृशं रूपम् अशुद्धम्। वयं प्रायः सर्वेपि अभिज्ञानशाकुन्तलं पठितवन्तः स्मः एव। तत्र प्रसिद्धः मुनिः दुर्वासाः, प्रायः सर्वत्र प्रादेशिकभाषासु दूर्वासः दूर्वासाः इति वा प्रयोगं वयं पश्यामः, किन्तु संस्कृते शुद्धं रूपं दुर्वासाः इति। दुर् इति उपसर्गः नाम प्रादिः, वासस् इति शब्दः सकारान्तः, दुर्वासस् इति तस्य प्रक्रिया यदा भवति दुर्वासाः इति रूपं सिद्ध्यति। दुर्निन्दितं वासः वस्त्रं यस्य सः, वासः इत्यस्य वस्त्रम् इति अर्थः, वासः वस्त्रम् इति पर्यायपदम्। निन्दितं वासः, निन्दायुक्तं वस्त्रं यः धरति, असमीचीनं वस्त्रं यः धरति तस्य दुर्वासाः इति तस्य शब्दः। अथवा दुः दुष्टं निगूढं वासः इव धर्मावरणं धर्मावरणत्वं यस्य, तस्य यः मुनिः अस्ति दुर्वासाः इति मुनिः, तस्य धर्मावरणं निगूढं, तादृशः अर्थः अपि अस्य शब्दस्य अस्ति। एवं विग्रहद्वये अपि दुर्वासाः इत्येव शुद्धं रूपं। सः शब्दः सकारान्तः न तु अकारान्तः, अतः दुर्वासः इत्यादि रूपाणि अशुद्धानि, दुर्वासः इत्यपि रूपम् अशुद्धमेव, दुर्वासाः इत्येव शुद्धं रूपम्। अयमपि प्रसिद्धः शब्दः संस्कृते अन्यत्र प्रादेशिकभाषासोऽपि, प्रसादनम् इति। एष प्रसादनम् इत्यादिकं वयम् इत्यादीनां शब्दानां प्रयोगं कुर्मः। प्रसादनं नाम अलङ्करणं, स्वच्छकरणं, सन्तोषणं वा। तत्र धातुः विशरणाद्यर्थकः शदलृ, शदलृ विशरणगत्यवसादनयोः इति, शदलृ इति धातुः। प्र इति उपसर्गः, प्रसादनम् इति रूपं भवति। अत्र अल्पप्राणः न अल्पप्राणः एव अत्र प्रसादनम् इत्येव, न तु प्रसाधनम् इति। साधनशब्दः यदा उपकरण इत्यर्थं बोधयति तदा तु सः ढकारः, किन्तु अत्र विशरणाद्यर्थकः शदुलृ धातुः इत्यतः प्रसादनम् इत्येव शुद्धं रूपम्। पत्रस्य कागदस्य भागः, पुरोभागः वा पृष्ठभागः वा अथवा शरीरस्य पश्चार्धः इति यदा उच्यते तदा पृष्ठम् इति महाप्राणयुक्तः पृष्ठशब्दः। पृष इति धातोः ठक् प्रत्यये पृष्ठ इति रूपं सिद्ध्यति। अल्पप्राणः अत्र न, किन्तु महाप्राणः एव। अतः पृष्ठम् इति कागदस्य भागः इति वा शरीरस्य पश्चार्धः इति वा अर्थे अयम् अशुद्धः प्रयोगः पृष्ठम् इत्येव शुद्धं रूपम्। अयम् प्रसिद्धः प्रादेशिकभाषासोऽपि विद्यमानः कुष्ठ इति रोगः, कुष्ठं नाम रोगविशेषः, अत्रापि महाप्राणः एव। कृष्णाति अङ्गम्, कृष इति धातुः, निष्कर्षः इति अर्थः, ठन् इति प्रत्ययः। कुष्ठम् कुष्ठशब्दः अस्माद् धातोः निष्पद्यते। अल्पप्राणयुक्तः अकारः, अल्पप्राणयुक्तः टकारः असाधुः। प्रादेशिकभाषासु प्रसिद्धः वैढूर्यशब्दः, सः असाधुः। मणिविशेषः वैडूर्यम् इति संस्कृतभाषायाम् अल्पप्राणः वैडूर्यम् इति, वैढूर्यम् इति अशुद्धं, वैडूर्यम् इत्येव शुद्धं रूपम्। विषकलितः इति संस्कृतभाषायां बहुधा प्रयुज्यते। विष इति मूर्धन्यषकारः अशुद्धः, विषकलितः इति सम्यक् विमृष्टः इत्यर्थे अयं शब्दः प्रयुज्यते। माघकाव्ये अयम् एतं प्रयोगं वयं द्रष्टुं शक्नुमः। इति विषकलितार्थाम् औद्धवीं वाचमेनाम् इति, अत्र षकारः आलव्यः न तु मूर्धन्यः। मूर्धन्यषकारे तु विषयुक्तः इति प्रयोगः इति अर्थः सिद्ध्यति, अत्र तु सः अर्थः नास्ति, सम्यक् विमृष्टः इति अर्थः, अतः विषकलितः इति तालव्यषकारयुक्तं रूपम् एव शुद्धम्। प्रायः ये मेघदूतं पठितवन्तः तत्र पूर्वमेघे कश्चित् श्लोकः अस्ति, याज्ञामोघा वरमधिगुणे नाथमे लब्धकामा इति। याज्ञा इत्येव शुद्धं रूपम्, याञ्चा इति शुद्धं नास्ति। याञ्चा इति प्रयोगः असाधुः, याचनार्थकता अत्र। यातृधातोः नङ् प्रत्ययः। अत्र नकार, अत्र नङ् इति प्रत्ययः इत्यतः सः प्रत्ययः मित् नास्ति, अतः याज्ञा इत्येव प्रयोक्तव्यम्। आदौ चकारः तदनन्तरं ञकारः। विष्ठा इति प्रसिद्धः शब्दः मलम् इति अर्थं द्योतयति। अत्र विष्ठा इति अल्पप्राणयुक्तं रूपम् अशुद्धम्, विष्ठा इत्येव। अमरकोशे एतस्य प्रयोगः दृश्यते, भूतं पुरुषं वर्चस्कम् अस्त्री विष्ठाविषौ स्त्रियौ इति। वितिष्ठते उदरे इति विष्ठा, वि इति उपसर्गः, ष्ठा इति धातुः, गति निवृत्तिः इति अर्थः, क प्रत्ययः, अतः विष्ठा इति रूपं सिद्ध्यति। षकारोत्तरं यः ठकारः सः महाप्राणः एव न तु अल्पप्राणः। प्रसिद्धः शब्दः अस्ति लोष्टम् इति, मृत्तिकायाः कश्चन खण्डः इति अर्थे लोष्टम् इति शब्दः प्रयुज्यते। षकारोत्तरः टकारः टवर्ग प्रथमः न तु टवर्ग द्वितीयः, अतः लोष्टम् इत्येव शुद्धं रूपम्। लोष्टानि लेष्टवः पुंसि इति अमरकोशेऽपि प्रयोगः दृश्यते। प्रसिद्धः शब्दः मण्डोदरी इति प्रादेशिकभाषासु बहुधा प्रयुज्यते, वस्तुतः संस्कृतभाषायां मन्दोदरी इत्येव। मन्दम् उदरं यस्याः सा मन्दोदरी, सा प्रसिद्धा मयसुता रावणमहिः। डकारश्रवणम् अत्र नास्ति, प्रादेशिकभाषासु श्रूयते, किन्तु संस्कृते तु डकारश्रवणं नास्ति, मन्दोदरी इत्येव। मण्डशब्दस्य कोऽपि सम्बन्धः अत्र नास्ति। कोष्ठकम् इति अयं प्रसिद्धः शब्दः, प्रकोष्ठ इति वयं वदामः, लघु प्रकोष्ठः इत्यर्थे कोष्ठकम् इति। कृष इति धातुः, निष्कर्षः इति अर्थः। उणादिप्रत्ययः थन् भवति, कोष्ठः इति रूपम्। प्रकोष्ठः धान्यागारः इति अर्थः। अल्पः कोष्ठः कोष्ठकम्, थन् इति प्रत्ययः इति पूर्वम् उक्तम्, तस्य ष्टुत्वेन ठकारः भवति। अल्पप्राणोपेतं रूपं नास्ति. कोष्टकम् इति अशुद्धम्, कोष्टकम् इत्येव शुद्धं रूपम्. एतादृशाः प्रयोगाः प्रायः अनन्ताः. शृङ्गग्राहिकतया कानिचन उदाहरणानि अत्र दर्शितानि. एतादृशाः दोषाः कथं निवारणीयाः? अस्य एकः एव परिहारः, अवधानदानम्. विस्तरेण वक्तव्यं, बोधनीयम् इति किञ्चिदपि नास्ति अत्र. अवधानमेव दीयताम् इति वक्तुं शक्नुमः. एतावत्पर्यन्तं ये विषयाः उक्ताः, तेषु विषयेषु कस्यापि प्रश्नः अस्ति चेत् कृपया हस्तम् उत्तोलयन्तु. मूर्ति महोदय, मूर्तिमहोदयस्य प्रश्नः अस्ति चेत् कृपया पृच्छतु. कल्पिता महोदय,
हरि ओम्.
हरि ओम्.
कोष्टकम् इति शब्दः ज्ञातः. कोष्टकं यदस्ति तत्र क्रियापदकोष्टकम् इत्यादि उच्यते, तत् संस्कृतेन अस्ति वा इति प्रश्नः अस्ति चेत् तत्र कोष्टकारः अस्ति वा ठकारः अस्ति?
अत्र तु यः शब्दः इदानीम् अस्माभिः दृष्टः, प्रकोष्ठ धान्यागार इति एषः शब्दः
अस्मिन् अर्थे
समीचीनम् अर्थे अहं दृष्ट्वा वदिष्यामि.
इत्युक्ते धान्य
सुमति महोदय, सुमति महोदय कृपया प्रश्नः.
नमस्ते. पूर्व स्लाइड में ज्योतिषिकः शुद्धम् अशुद्धं लोकम् एकम् अस्ति. ज्योतिषिकः एकरूपं भिन्न अस्ति. ज्योतिषिकः ज्योतिषिकः एकं हि एकमेव रूपम् अस्ति चेत् अस्ति किल वा?
अत्र लेखने कश्चन दोषः अस्ति. अत्र अशुद्धरूपे यकारः नास्ति. अत्र ज्योतिषिकः इति यकाररहितं रूपम् अशुद्धम्, यकारसहितं रूपं शुद्धमेव. अत्र दोषः अस्ति, यकारः न भवेत् अत्र. ज्योतिषिकः इति केचन लिखन्ति, ज्यो इति यकाररहितं रूपं, तत् अशुद्धम्. अत्र दोषः अस्ति. एतद्द्वयं रूपं शुद्धम्. अत्र यकारः नास्ति अशुद्धरूपे. ज्योतिषिकः इति तद् अशुद्धं रूपम्.
ओके ओके, थैंक यू थैंक यू. एक और प्रश्न
वदतु.
पूर्व स्लाइड में झकार जर्जर अर्थं किम्?
प्रायः बहुधा यदा युद्धस्य वर्णनं भवति सः जर्जरितः अस्ति इति प्रयोगः भवति. प्रायः बहु व्रणितः अस्ति, बहु कष्टेन अस्ति इत्यर्थे जर्जरितः इति प्रयोगः अस्ति. अथवा जीवने बहु कष्टमस्ति, कष्टेन जर्जरितः अस्ति इति प्रयोगः संस्कृतभाषायाम् अस्ति.
ओके. झञ्झावातः अर्थं किम्?
झञ्झावातः इत्यस्य आङ्ग्लभाषायां स्टार्म् इति उच्यते प्रायः. सः झञ्झावातशब्दः. रजनीश महोदय
नमो नमो
नमो नमो
मुझे ज्योतिष का एक्सप्लेनेशन समझ में नहीं आया कि फर्स्ट जो है वो जो गलत है और जो सेकंड अल्टरनेटिव है वो सही कैसे है वो राइटिंग प्रॉब्लम है कि पढ़ने में प्रॉब्लम है
अत्र वस्तुतः एतद् अत्र यकारः न भवेत् ज्योतिषिकः इति केचन लिखन्ति तत् अशुद्धम् इति अत्र यकारः मया न लेखनीयः आसीत् ज्योतिषिकः इदानीं द्रष्टुं शक्नुमः ज्यो इति यदि वयं लिखामः एतादृशं रूपं ज्योतिषिकः इति रूपम् अशुद्धम् ज्योतिषिकः ज्योतिषिकः इति रूपं शुद्धम् अत्र यकारः नास्ति अशुद्धरूपे ज्योति इति यकाररहितं रूपम् अशुद्धम्
How will I know कि यहाँ पे अकार नहीं है विजुअली देखने में तो दोनों सेम दिख रहे हैं
हाँ तदेव तत्र पावर पॉइंट मध्ये दोषः अस्ति अत्र यकारः न भवितव्यः अशुद्धरूपे ज्योतिषिकः
ओके
एतत् अशुद्धरूपम् ओके एतद्वयं शुद्धं रूपम्
ओके थैंक यू
एतावत् पर्यन्तं रूपदोषाः इति विषये वयं बहून् शब्दान् दृष्टवन्तः अग्रिमः अस्य अध्यायस्य अग्रिमः भागः लिङ्गदोषाः इति विषयः अस्ति कश्चन नूतनः विषयः तद्विषये अग्रिमकक्षायां वयं पश्यामः एतां कक्षाम् अत्र समापयामः सर्वेभ्यः धन्यवादाः